एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। स्वास्थ्य जनसंख्या मन्त्रालयेन वंशाणुगत समस्यायाः हिमोफोलिया नामकेन रोगेण ग्रस्ताय जनाय निःशुल्कम् औषधम् प्रदास्यते। जटिलस्य वंशाणुगत रोगस्य परवर्तिनि समये दृक्पथम् गतस्य रोगस्यास्य उपचाराय आवश्यकानि औषधानि स्वास्थ्य जनसंख्या मन्त्रालयान्तर्गतेषु संघीय चिकित्सालयेषु, प्रादेशिक चिकित्सालयेषु, अन्येषु सर्वकारीय चिकित्सालयेषु च प्राप्तुं शक्यते। स्वास्थ्य जनसंख्या मन्त्रालयेन अस्य औषधस्य कृते राज्यकोषे भारं विनैव विश्व हिमोफोलिया महासंघस्य माध्यमेन प्राप्यते इति मन्त्रालयस्य नीति योजनानुगमन महाशाखायाः प्रमुखः डाक्टर कृष्ण पौडेलः असूचयत्। नेपाले सम्प्रति नवशते जनेषु रोगोयम् दृक्पथम् आगतोऽस्ति। परम् विश्व स्वास्थ्य संघटनेन नेपाले अस्य रोगस्य अन्येऽपि पञ्चसहस्राधिकाः रोगिणः सन्तीति अनुमितम् वर्तते। राष्ट्रिय योजना आयोगेन आयोजनानाम् द्रुततया कार्यम् प्रारब्धमस्ति। राष्ट्रिय योजना आयोगेन ह्य सिंहप्रासादे आयोजिते पत्रकार मेलन कार्यक्रमे आयोगस्य उपाध्यक्षः प्राध्यापक डाक्टर शिवराज अधिकारी विशेष प्राथमिकतायां स्थापितानाम् आयोजनानाम् यथासमयम् सम्पादनत्वेन आयोगेन कार्यम् विधीयमानमस्ति इति अवदत्। असौ अगदत् आयोजनानाम् स्वीकृत्यापेक्षया पूर्णतायामेव प्रसन्नता प्रदर्शनीया। कार्यक्रमे राष्ट्रिय योजना आयोगस्य सचिवः मधुकुमार मरासिनी षोडशायोजनया निर्धारितस्य स्थिर विकास लक्ष्यस्य क्रियान्वयनाय आयोगेन उत्पादने उत्पादकत्वे वृत्त्युपार्जने च विशेष प्राथमिकतया कार्यम् प्रारब्धमस्ति इति अभाषत। तदवसरे आयोगस्य सहसचिवौ खुमराज कोइराला, अर्जुन भण्डारी च नेपालः आगामी षड्विंशत्युत्तर द्विसहस्रतमे ख्रीष्टवर्षे अति न्यून विकसित देशेभ्यः विकासशील देशानां पंक्तौ प्रोन्नतो भविष्यतीत्यतः राष्ट्रिय योजना आयोगेन आयोजना कोषस्य संचालनस्य व्यवस्थापनस्य च मापदण्डम् विधाय सक्रियेण कार्यम् विधीयते इति अवोचताम्। काभ्रे जनपदस्य दक्षिण दिशः महाभारत सामुदायिक वने दूरापन्नः दावानलः अधुनापि नियन्त्रणे नास्ति। खानीखुला ग्रामपालिकायाः थामखिल डाँडावर्तिनी महाभारत सामुदायिक वने मंगलवासरस्य दिवासमयात् दावानलः प्रारब्धोऽस्तीति काभ्रे जनपदस्य सहायक प्रमुख जनपदाधिकारी सुदर्शन श्रेष्ठः अवोचत्। नेपाली सेनायाः प्रहरिणस्य समूहै स्थानीयैः सह समन्वयं विधाय दावानलस्य नियन्त्रणाय प्रयासः विधीयमानोऽस्तीति असौ अज्ञापयत्। धुलीखेल वन कार्यालय महाशाखायाः अनुसारेण मंगलवासरस्य दिवा द्विवादनात् वनस्य भृगुक्षेत्रात् दावानलः प्रारब्ध आसीत्। राष्ट्रपतिना रामचन्द्र पौडेलेन संविधानस्य लोकतान्त्रिक शासन प्रणाल्याश्च मेरुदण्डत्वेन विद्यमानेन निकायेन जनतः विकासञ्च केन्द्रे स्थापयित्वा कार्यं कर्तव्यं भवतीति उक्तं वर्तते। शीतल निवासवर्तिनी राष्ट्रपति भवने ह्य समायोजिते जनपद समन्वय समितिनां प्रमुखो प्रमुखैः जनपद समन्वय समिति महासंघस्य पदाधिकारिभिश्च सह मेलन कार्यक्रमे राष्ट्रपतिः पौडेलः सर्वकारस्य अर्थव्यवस्थायाः योजनायाः कार्यादेशस्य चानुसारेण कार्यं जातम् अस्ति न वेति विषये अनुगमनं कर्तुं समन्वय कर्तुं च आत्मनः भूमिकां गतिशीलताञ्च वर्धयितुं समितेः पदाधिकारिभ्य आग्रहं कृतवान् अस्ति। तदवसरे राष्ट्रपतिना पौडेलेन ग्रामपालिका नगरपालिकानां मध्ये समन्वयं कृत्वा विकास कार्यक्रमाणाम् अनुगमनकरणञ्च समितेः मुख्य दायित्वमस्ति इति संविधाने व्यवस्था कृता स्थिति स्मारितमासीत्। संघीय सर्वकारीय सेवा विधेयकस्य प्रस्तावनायां संशोधनं कृत्वा प्रतिनिधिसभायाः राज्यव्यवस्था सुशासन समित्या विधेयकं पारितीकृतं वर्तते। समितेः ह्यस्तनोपवेशेन संघीय सर्वकारीय सेवा विधेयकस्य प्रस्तावनायां संशोधनं कृत्वा विधेयकं पारितीकृतमस्ति। उपवेशे विधेयकस्य प्रथम तृतीय चतुर्थ प्रकरणानि संशोधनं पारितीकृतानि सन्ति। समित्या अतः परं नियमितरूपेण विधेयकमाश्रित्य प्रतिप्रकरणं विमृश्य विधेयकस्य आगामिनि अधिवेशने प्रस्तुष्यमाणत्वेन कार्यं विधास्यते इति समितेः सभापतिः रामहरिखतिओडा अज्ञापयत्। प्रतिनिधिसभायाः उद्योग वाणिज्य श्रमोपभोक्तृ हित समितौ वैदेशिक वृत्त्युपार्जनाय गन्तुकामानां श्रमिकाणां स्वास्थ्य परीक्षणं विधिसम्मतं विधेयम् इति विषये विमृष्टमस्ति। समितेः ह्यस्तनोपवेशे समितेः सांसदैः वैदेशिक वृत्त्युपार्जनाय गन्तुकामानां श्रमिकाणां सम्बद्ध राष्ट्रैः पुनः परीक्षणे विहिते नेपाले विहितस्य परीक्षणस्य विफलीभवनस्य अवस्थायाः अन्तो विधेये इति बलं प्रदत्तमस्ति। उपवेशे सांसदः स्वास्थ्य परीक्षणं विश्वव्यापी विधेयम् इति च बलं प्रादुः। उपवेशे नेपाल चिकित्सा व्यवसायी संघस्य अध्यक्षः ताराकान्त अर्यालः सर्वकारात् स्वीकृतिं प्राप्ताभिः चिकित्सा संस्थाभिः मलेशिया देशस्य अष्टादशभिः एव संस्थाभिः मध्यपूर्व दिशः देशेषु गन्तुकामानां श्रमिकाणां स्वास्थ्य परीक्षणस्य व्यवस्थया चिकित्सा व्यवसायिनः पीडिताः सन्तीत्यतः एवं व्यवस्थां निरस्तीकर्तुम् अनुरुणत्। विगत षोडश वर्षेष् चतुर्दशभिः श्रमिकैः वैदेशिक वृत्त्युपार्जनस्य क्रमे शरीरं हापितमिति भाषमाणः अध्यक्षः अर्यालः वैदेशिक वृत्त्युपार्जनस्य क्रमे मृतकः प्रायः श्रमिकः ताभिरेव स्वास्थ्य संस्थाभिः स्वास्थ्य परीक्षणं विधाय गतः आसन्निति प्राप्तमस्ति इति अज्ञापयत्। उपप्रधान अर्थमन्त्री विष्णु पौडेलः कथयति वर्तमान सर्वकारः अर्थतन्त्रे दृष्टाः समस्याः समाधानाय अग्रे वर्धितुं प्रयासरतो वर्तते। ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे अर्थमन्त्री पौडेलः अर्थतन्त्रं सुदृढं विधातुं सफलता अधिगतास्ति, अतिरिक्तोपलब्धिमधुगन्तुं सर्वकारः प्रयत्नशीलोऽस्तीति अवोचत्। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ निगदति राष्ट्रिय सहमतावेव संविधान संशोधनं भविष्यति। प्रेस चौतारी संस्थया ह्य बुटवल नगरे आयोजिते पत्रकार सम्मेलने मन्त्री गुरूङ संघीयतायां धर्मनिरपेक्षतायां समानुपातिक समावेशितायां च किमपि परिवर्तनं न भविष्यति इति समस्पष्टयत्। मन्त्री गुरूङ राजनीतिक स्थिरतायै संविधान संशोधनम् अपेक्षितम् अवर्तते इति चर्चयन् सुशासनं विना देशस्य विकासः न सम्भवति इति प्रावोचत्। मन्त्री गुरूङ विधेय शासनस्य अभावेन समस्याः समापतिताः सन्ति इति चर्चयन् सुशासनार्थं त्रयोदशानां प्राचीनानां विधीनाम् अध्यादेशस्य माध्यमेन संशोधनं विधीयते इति अज्ञापयत्। राष्ट्रपतेः रामचन्द्र पौडेलस्य समक्षं नेपालस्य कृते जापान देशस्य तुर्कमेनिस्तान देशस्य लाओस देशस्य इरान देशस्य च नवनियुक्ताः राजदूताः स्वपदस्य प्रमाणपत्रं प्रस्तुतवन्तः सन्ति। ह्य राष्ट्रपति भवने आयोजिते पृथक् पृथक् समारोहे नवनियुक्ताः राजदूताः जापान देशस्य मेरा तोरु, तुर्कमेनिस्तान देशस्य सालार गेल्डी नाजारोव, लाओस देशस्य वाउन्मे भ्यानमानी, इरान देशस्य च डाक्टर इराज इलाही च राष्ट्रपतेः पौडेलस्य समक्षं स्वपदस्य प्रमाणपत्राणि प्रस्तुवन् इति समाचारः।